शौकस्यै सहस्राक्षो घण्टामीरापताब्दजात् कालदण्डाद्यमोदण्डम् पाशम् चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालाम् ददौ ब्रह्मा कमण्डलम् सहस्तरोमकूपेषु दिगरश्मीन्दिवाकरः कालश्च दत्तवान् षट्कम् तस्याश्चर्म च निर्मलम् क्षीरोदश्यामलम् हारमगरे च तथाम्बरे चूडामणिम् तथा दिव्यम् कुण्डले कटकानि च अर्धचन्द्रम् तथा शुद्धम् केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वद्वैवेशकमनुत्तमम् अङ्गुलीयकरत्नानि समस्तात् अङ्गुलीषु च विश्वकर्मादौ तस्यै परशुम् चातिनिर्मलम् अस्त्राण्येकरूपाणि तथा भेद्यम् च संशमम् अम्लानपङ्कजाम् मालाम् शिरस्युरसिता पराम् अददज्जलभिस्तस्यै पङ्कजम् चातिशोभनम् हिमवान्वाहनम् सिंहम् रक्तानि विविधानि च ददावशून्यम् सुरया पानपात्रम् धनाधिपः शेषस्य सर्वनागेशो महामणिविभूषितम् नागहारम् ददौ तस्यै धत्ते यस्तिमा अन्यैरपि सुरैर्वेदी भूषणैरायुधैस्तथा सम्मानितानादोच्चैस्ताट्टहासम् मुहुर्मुहुः तस्यानादेन घोरेण कृत्रमापूरितम् नभः अमायतापि महता प्रतिशब्दो महानभूत् चुक्षुभुत्तकलालोकास्तमुद्राश्च च कम्पिते चालवसुभाते लुप्तकलाश्च महीधराः जयेति देवाश्च मुदातामूचुसिंहवाचिनि सुष्टुभुर्मुनयश्चैनाम् भक्तिनम् ब्राह्ममूर्तयः दृष्ट्वा समस्तम् संक्षुब्धम् त्रैलोक्यममरारयः तन्नद्वाखिलसैन्यास्ते समुत्तस्फुरुताः आश्चिमेतदि विक्रोधाभाष्यमहिषासुरः अभ्यधावत संशब्दमशेषैरसुरैर्वृतः तददर्श ततो देवीम् व्याप्तलोकत्रयाम् पादाक्रान्त्यानत भुवम् कीटोन्निशिकाम्बराम् शोभिताशेषपादानाम् धनुर्जानि स्वनेनताम् इतो भुजसहस्रेण समन्ता याप्यसञ्चिताम् ततः प्रभवृते युद्धम् तयाेद्या पुरद्विषाम् शस्त्रास्त्रैर्बहुधा मुक्तैरावीति कविकम् परम् मनिषासुरसेनानी चिक्षुराक्षो महासुरः युयुधे सामरस्वान्यै चतुरङ्गबलान्वितः तथा नामयुतै षड्विरुदस्राक्षो महासुरः अयुध्यतायुतानाम् च सहस्रेण महामनुः पञ्चाशद्भिश्च नियुतैरतिलो महासुरः अयुतानाम् शतैषद्भिर्काष्कलो युयुधे रणे गजभारिसहस्रौघैरनेकैः परिवारितः ऋतोरथा
completed.